छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः त्वय्यारुधे शिखरमचलः स्निग्धवेणीसवर्णे नूनं यस्यात्यमरमितु न प्रेक्षणीयामवस्थां मध्ये श्यामस्तनैव भुवः शेषविस्तारपाण्डुः।